एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रिय सभायाः गतदिवसीय उपवेशेन एतद् वैक्रमाब्दं नेपाल नागरिकता प्रथम संशोधन विधेयकं बहुमतेन पारितकृतमस्ति। उपवेशेन राष्ट्रपतिना विद्यादेवी भण्डारिणा पुनर्विचाराय ससन्देशं प्रतिप्रेषितं विधेयकमिदं प्रस्तुतरूपेणैव पुनः पारितकृतं वर्तते। विधेयकम् आधृत्य विहिते विमर्शने उत्थापितानां प्रश्नानाम् उत्तरणक्रमे गृहमन्त्री बालकृष्ण खाना अवदत् नागरिकता देशस्य अस्तित्वेन राष्ट्रियैकता याच सह सम्पृक्त विषयस्थिति हेतुः एतद् लाभहान्यो विषयो न निर्मातव्यः। गृहमन्त्री खाण अवासत नेपालस्य वर्तमान संविधानेन सुनिश्चितं सर्वेषां नेपाली नागरिकाणां कृते नागरिकता प्राप्तेः सांविधानिकाधिकारो भवतीति प्रावधानं क्रियान्वेतुं विधेयकम् आनीतं वर्तते। राष्ट्रियसभायाः गतदिने उपविष्टे द्वितीयोपवेशे अध्यक्षः गणेशप्रसाद तिमलसिन्हा राष्ट्रियसभायाः विषयगत समितिनां रिक्तानां सभापतिनां निर्वाचनाय अस्यैव भाद्रस्य त्रयोविंशं दिवसं निरधारयत। अध्यक्ष तिमलसिन्हा समितिनां सभापतिनां निर्वाचन कार्यक्रमस्य सूचनायाः प्रकाशनार्थं राष्ट्रियसभायाः सचिवं राजेन्द्र फुयालं निरदिशत। राष्ट्रियसभायाः अपरोपवेशः अस्यैव भाद्रस्य एकविंशे दिवसे मंगलवासरे दिवा एकवादने वस्ता। प्रधानमन्त्री शेरबहादुर देउवा विश्वविद्यालयानां समस्याः समाह्वयाञ्च समाधाय पठन पाठनस्य उत्कृष्टस्थलं निर्मातुं सर्वैः संलग्नैर्भाव्यमित्यत्र बलं ददाति। प्रधानमन्त्री देउवा काष्ठमण्डपे आयोजितं वाणिज्य दिवसं शंकरदेव क्याम्पस महाविद्यालयस्य नवीन भवनं च उद्घाटयन् विश्वविद्यालयानां राजनीतिक हस्तक्षेपात् मोचनाय अत्रत्याः समस्याः सम्बद्ध पक्षेण सहवार्तां कृत्वा समाधातुम् अन्वरुणात्। प्रधानमन्त्री देउवा शंकरदेव महाविद्यालयेन स्थापना कालात् एव व्यवस्थापन विधायां क्षम जनशक्तिः उत्पाद्यमाना स्थिति चर्चयन् अकथयत्। महाविद्यालयात् उत्पादितया जनशक्त्या राष्ट्रस्य अर्थतन्त्रे महत्वपूर्ण भूमिका निर्वह्यमाना वर्तते। कार्यक्रमे शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः विश्वविद्यालये तालवन्दनं न कर्तुम् अनुरुन्धानः अब्रवीत्। समस्याः लोकतान्त्रिक पद्धत्या समाधाय पठन पाठनस्य अग्रे वर्धनाय तालवन्दन मुक्त विश्वविद्यालयाभियानाय च संकल्पो विधातव्य। प्रतिनिधि सभाया ह्यस्तनोपवेशेन विलोपितानां व्यक्तिनां एतद् विक्रम वर्षीयम् अनुसन्धान सत्यनिरूपण मेलायोग तृतीय संशोधन विधेयकं प्रकरणगत विमर्शनाय संसदीय समितौ प्रेषितं वर्तते। उपवेशेन विधि न्याय संसदीय विषय मन्त्रिणा गोविन्द प्रसाद शर्मा कोइराला विधेयन प्रकरणगत विमर्शनाय विधेयकमिदं सम्बद्ध समितौ प्रेषिताम् इत्युक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। एवमेव उपवेशे 67-2000 विक्रम वर्षीयं मीडिया काउन्सिल विधेयकम् आधृत्य सैद्धान्तिकं विमर्शनं विहितमस्ति। प्रतिनिधिसभायाः अपरोपवेशः श्व भाद्रस्य 29 दिवसे दिवाद्विवादने वस्ता। अद्य धार्मिकं सांस्कृतिकं च गौरापर्व समायोज्यमानं वर्तते। पार्वत्या कठोर तपसा शिवः पत्युरूपेण प्राप्ता इति पौराणिक कथनस्य अनुसारेण अस्मिन् पर्वणि मूलतो गौर्याः पार्वत्या वा पूजाराधने विधि एते इत्यतः अस्य नाम गौरापर्व जातमिति मन्यते। अस्मिन् पर्वणि शिव पार्वती सम्बद्धाः विविधाः कथाः कथ्यन्ते, गीतानि च लयबद्ध रूपेण गीयन्ते। एतस्मात् कारणात् एतद् गीति पर्वणः रूपेणापि समाद्रियते। सप्तम्या तिथेः सायंकालतः व्रताचारिण्योः विवाहिताः महिलाः अद्य गौरा पूजनस्थलमेत्य यज्ञोपवितवत सूत्रं गौर्यै समर्पयन्ति। आत्मनोऽपि नवीन सूत्रं धारयन्ति। सूत्रमिदं दुबधागो इत्युच्यते। पर्वेदं न केवलं स्वबन्धुमित्रजनेषु सीमितम् अपि तु सम्पूर्ण जनसमुदायानां व्यापक जनसहभागितायां समायोज्यते। एतत्कारणात् सामूहिकैकतायाः भावना अस्य पर्वणो मुख्यं वैशिष्ट्यं वर्तते। गौरापर्वणः अवसरे सन्देशं ददति राष्ट्रपतिः विद्यादेवी भण्डारी गौरापर्वणा नेपाली मौलिक संस्कृतेः संरक्षण पुरस्सरं समाजे विद्यमानाः अन्धविश्वास विभेद विकृति विसङ्गतिः समाप्य सभ्यस्य सुसंस्कृत समता मूलकस्य च समाजस्य निर्माणाय प्रेरणा मिलतु इति शुभकामनां व्यनक्ति। उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन प्रदत्ते शुभकामना सन्देशे मौलिक संस्कारैः संस्कृत्या धार्मिक सामाजिक पर्वोत्सवैश्च सामाजिक सद्भाव राष्ट्रिय एकता च सबली क्रियमाणे स्तः इत्युक्तं वर्तते। प्रधानमन्त्री शेरबहादुर देउवा स्वस्य शुभकामना सन्देशे गौरा पर्वण अवसरे गीयमानानि विभिन्नानि धार्मिक सांस्कृतिक गीतानि भजनानि च देउडा प्रवृत्ति नृत्यानि च नेपालस्य अमूल्य लोक संस्कृतिरस्तीति चर्चन एतस्याः संस्कृतेः संरक्षणं संवर्धनं च सर्वेषां राष्ट्रिय दायित्वमस्तीति उल्लिखति। गृहमन्त्री बालकृष्ण खाँड कथयति विपदः कृते विनियुक्तस्य वित्तस्य पूर्णरूपेण सदुपयोगो कर्तव्यः। विपद न्यूनीकरण व्यवस्थापन कार्यकारी समितेः उपवेशे ह्यो गृहमन्त्री खाँड विपदः कृते विनियुक्तस्य वित्तस्य सदुपयोगस्य सदुपयोगाय सचेष्टेन संवेदनशीलेन च स्थातुं सम्बद्ध सर्वकारीय निकायं राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरण च निरदिशत। गृहमन्त्री खान अवासत सर्वकार विपदा प्रभावितानां जनानां उद्धार सहयोगयोः व्यवस्थापनस्य च कृते वित्तस्य अभावं रोद्धुं प्रयत्नशीलो वर्तते। उपवेशन पाँचथर उदयपुर गोर्खा डडेलधुरा बजाङ प्रवृत्तिषु जनपदेषु वर्षायामज विपदा क्षतिग्रस्तानाम् अत्यावश्यक संरचनानां पुनर्निर्माणाय विपद व्यवस्थापन कोषस्य वित्तं प्रदातुं निर्णीतं वर्तते। राष्ट्रिय परीक्षा समित्या द्वादश कक्षायाः परीक्षायाः परिणामः ह्यः सार्वजनीकृतोऽस्ति। गत ज्येष्ठस्य षोडश दिवसात् पञ्चविंशम् दिवसम् यावत् सञ्चालितायाः परीक्षायाः परिणाम प्रकाशितोऽस्तीति समितेः अध्यक्ष महाश्रम शर्मा अज्ञापयत्। नियमित परीक्षायां लक्षत्रयं 63,000 अष्टौ च, श्रेणीवृद्धिपक्षे 45,000+ आंशिक परीक्षायाञ्च 16,000 37,000 परीक्षार्थिनः उत्तीर्णाः सन्ति। एवमेव नियमित परीक्षायाम् 38 परीक्षार्थिनां परीक्षा निरस्तीकृता वर्तते। श्रेणीवृद्धिपक्षे 3 आंशिक परीक्षायां च 2 परीक्षार्थिनोः परीक्षा निरस्तीकृता अस्ति। समित्या द्वादश कक्षायाः श्रेणीवृद्धि परीक्षा आगामिनः आश्विन मासस्य 31 च दिवसयोः सञ्चालयितेति ज्ञापितं वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः कथयति गठबन्धनस्य दलानि स्थानावण्टनस्य निर्णय प्रायः प्राप्तानि सन्ति। सुर्खेत विमानस्थले ह्यः पत्रकारैः सह सम्पन्ने मेलने अध्यक्ष प्रचण्डः अवदत् गठबन्धनस्य क्षेत्राणि प्रदेशाञ्च निर्धार्य एव स्थानावण्टनस्य सहमतेर्निकटे प्राप्तमस्ति इति समाचाराः।